त्वमग्नेवरो नो जायासे यत्त्वम् मित्रो भवसि यत्समिद्धः ते विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय त्वमर्यमा भवसि यत्कनीनाम् नाम स्वधावन् गुह्यम् बिभर्षि अञ्जन्ति मित्रम् सुधीतम् न गोभिर्यद्दम्पति समानसा कृणोषि तव श्रिये मरुतोः मज्जयन्तरुद्रयत्तेजनीमचारु चित्रम् पतञ्जद्विष्णोः रूपमम् निहाजितेन पासि गुह्यम् नाम गोणाम् तव श्रिया सुदृशो देवदेवाः पुरुदधाना अमृतम् सपन्त होदारमग्निम् मनुषो निषेदुर्दसस्यन्त कुसिजः संसमायोः न तद्भोदापूर्वो अग्नेयजीयान्न काव्यैः परो अस्ति स्वधावः विशश्च यस्यादिर्भवासि स यज्ञेन वनवद्देवमर्तान् वयमग्नेवलिया मत्वोताः वसूयवो हविषा बुध्यमानाः वयम् स मर्ये विदधेष्वह्नाम् वयम् राजा सहसस्पुत्रमत्तान् यो नागो अभ्येनो भरात्यधीरघमगसमम् से दधात जहीचीकित्तो अभिरस्य नेतामग्नेयो नो भक्षयति ध्वजेन स्याषि देवपूर्वे दूतम् कृपालायन्ताव्यैः संस्थेयदग्नीयशैरीणाम् देवो मध्यैर्वसुभिरिध्यमानः अवस्पृथिपितरम् ज्योति विद्वान् पुत्रो यस्ते सहसो न भूहे कदाचीकृत्तो अभिचक्षसेनोऽग्ने कदा कृतदिद्यातयासे भूरिणामबन्धमानो दधाति पिता वासो यदि जोषयासे कुमिद्देवस्य सहसा चकारः सुम्नभग्निर्वनते वा वृधानः त्वमङ्गचरितारञ्जविष्ठविश्वान्यज्ञे दुरितादिपर्षि सेनादृश्रम् कृपो जनासो ज्ञातकेता वृषिणा भूवन् इमे रामासस्त्वद्रिग भूवन्वस मे पातदिदागो अवाचि नाहारमग्निरविसस्तये नो ललीष देवावृधानः परादात्